रसश्वतम् सराध समर्चा चक्रमभिष्टये यः सन् वदेस्तवदे काम्यम् वस सहस्रेडेवमम् हते शतानेका हेतजो अस्य दुष्टरा इन्द्रस्य समिषो महीः गिरर्न भुज्मा मघवत्सविन्वदे यदेम् सुता अमन्दिशः यदेम् सुता स इन्दवोऽभिप्रियममन्दिशः आपो नधाजिसवनम् महावसो दुघा इवोपदाशुषे अनेहसम् वोहवमानभूतजे मध्वाः क्षरन्ति धीतजाः आत्मा वसो हवमाना स इन्दव उपस्तोत्रेषु दधिरे आनः सोमे स्वध्वर इयानो अत्योनतोऽशते यन्ते स्वदापन् स्वदन्ति गोर्तजः पौरे छन्दजसे हवम् प्रवीरमुग्रम् विविचिन्धनस्प्रदम् विभोदिम् राधसो महः उद्रेव वज्रन्न पदो वसत्मना सदा पीपेथदाशुषे यद्धनोऽनम् परापति यद्वा पृथिव्याम् दिवि यजान इन्द्रहरिभर्महेमदरश्वरश्वेभिरागहि रथिरासोहरजोजेते अश्रधोजोपातस्य विप्रति ये भर्निदस्यम् मनुषो निघोषजोजे भस्वः परीयसे एतावतस्तेव सो विद्यामशोरनव्यसः यथा प्राव एतशङ्क्रत्वे धने यथा वशन्तशौरजे यथा कण्वे मघवन्मेधे अध्वरे दीर्घनेधे दमो नसि यथा कोशरे जे असिशासो अद्रिवामय गोत्रम् हरिश्रयम्।